एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सुदूरपश्चिम कर्णाली गण्डकी प्रदेशानां हिमालयेषु उच्चपर्वतीयेषु च भूभागेषु वर्षाभिः सहैव हिमपातस्य कारणेन जनजीवनं प्रभावितं वर्तते। बृहस्पतिवासरात् सुदूरपश्चिम प्रदेशस्य बझांग बाजुरा अछाम जुम्ला प्रभृतीनां हिमालयीय जनपदानां उच्च भूभागेषु हिमपातस्य पर्वतीय भूभागेषु वृष्टेश्च कारणेन शैत्यं वर्धितमस्ति। अस्मिन् वर्षे शीतकालस्य समये पूर्णतः वर्षाणां हिमपातस्य च अभावानन्तरम् अधुना फाल्गुनमासस्य मध्यसमये हिमपातस्य वृष्टेश्च पश्चात् अतः परम् उत्पादनं वर्धिष्यति इति उक्त्वा कृषकः प्रसन्नः सन्तीति अस्माकं संवाददातारः ज्ञापयन्ति। ह्यः प्रातः कालात् सम्भूतायाः वृष्टेः हिमपातस्य च कारणेन मध्यपर्वतीय लोकमार्गस्य बागलुङ खण्डः अवरुद्धो वर्तते। मार्गे पतितस्य सघन हिमपातस्य कारणेन लोकमार्गस्य अन्तर्गतः बागलुङ जनपदस्य निसीखोला रुकुम पूर्वखण्डः अवरुद्धोऽस्ति। नेपालस्य एकमात्रस्य ढोरपाटन आखेट आरक्षण क्षेत्रस्य उपरि भागे सघन हिमपातः सम्भूतोऽस्ति। एवमेव मुगु जनपदस्य विभिन्न क्षेत्रेष्वपि हिमपातस्य कारणेन शैत्यस्य वर्धनात् जनजीवनं प्रभावितं वर्तते। देशस्य राजधान्यां काष्ठमण्डपेऽपि गतरात्रौ प्रायः आरात्रि वृष्टिः सम्भूता अस्ति। अधुना वृष्टेः पश्चात् वातावरणं स्वच्छं वर्तते। सिन्धुपाल्चोक जनपदस्य भैरवकुण्ड क्षेत्रस्य समीपवर्तिनं भूभागं केन्द्रीकृत्य ह्यः प्रातः 10.1 षण्णाम् अंकानां म्याग्निच्यूड परिमितस्य भूकम्पस्य बहुषु जनपदेषु अनुभवने सत्यपि सप्तषु जनपदेषु भूकम्पनस्य प्रभावः सम्भूतोऽस्तीति प्रहरी प्रधान कार्यालयेन ज्ञापितम् वर्तते। नेपाल प्रहरिणः प्रवक्ता प्रहरी नायब महानिरीक्षकः दिनेश कुमार आचार्यः भूकम्पस्य कारणेन सिन्धुपाल्चोक भोजपुर काष्ठमण्डप दोलखा संखुवा सभा म्याग्दी धादिङ जनपदेषु जनाः आहताः सन्ति। कतिषुचित् गृहेषु क्षतिः प्राप्ता च वर्तते इति असूचयत्। भूकम्पनस्य कारणेन त्रयः परिवाराः विस्थापिताः सन्तीति सार्वजनिक कृते विवरणे प्रहरिणा उल्लिखितम् वर्तते। सिन्धुपाल्चोक जनपदस्य भैरवकुण्डस्य निकटवर्ति क्षेत्रं केन्द्रबिन्दु निर्माय ह्यः प्रातः 1:50 भूकम्पः दूरापन्नो आसीत्। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपाल जापान देशयोः एतत् ख्रीष्टवर्षीयस्य मैत्री सम्मेलनस्य माध्यमेन द्वयोः देशयोः सम्बन्धम् इतोऽपि विस्तारयितुं सहयोगः प्राप्स्यते। सम्मेलने सहभागितायै नेपालम् आगतेन जापान देशस्य समूहेन नेपालस्य समन्वयकारिभिः जनैश्च सह बालुवाचारवर्तिनी प्रधानमन्त्री निवासी सम्भूते मेलने प्रधानमन्त्री ओली नेपाल जापान देशयोः सर्वकारयोः जनतायाञ्च दीर्घकालात् विद्यमानः घनिष्ठः सम्बन्धः सम्प्रति आयात निर्यातयोरपि विकसितोऽस्तीति अभाषत। नेपाली कांग्रेस दलस्य ह्य उपविष्टे पदाधिकारिणाम् उपवेशे दल सम्बद्धस्य विधेयकस्य अग्रेसारणस्य विषये विमृष्टमस्ति। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य निवासे उपविष्टे उपवेशे दल सम्बद्धेन विधेयकेन सहैव स्वतन्त्र विद्यार्थी यूनियन इति नाम्नो सुवियु विद्यार्थी संघटनस्य निर्वाचनस्य सर्वकारस्य कार्यस्य च विषये विमृष्टम् इति उपवेशानन्तरं दलस्य प्रमुख सचेतक पदीयः श्याम घिमिरे अज्ञापयत्। नेपाल मजदूर किसान पार्टी नाम्नो नेम किपा दलस्य अष्टमं महाधिवेशनं ह्यस्तना दिवसात् भक्तपुरे प्रारब्धमस्ति। दलस्य अष्टमं अधिवेशनम् उद्घाटयन् दलाध्यक्षः नारायणमान विजुक्षे देशे संघीय व्यवस्थायां प्राप्तेऽपि व्यवहारे नियन्त्रितायाः सीमितीकृतायाश्च संघीयतायाः एव अभ्यासः जायमानोऽस्तीति अभाषत। अध्यक्षः विजुक्षे स्थानीयस्तराणां सर्वकारान् अधिकार सम्पन्नान् विधातुं बलं ददत्। जनतायाः चेतनाया स्तरस्य उन्नयनस्य अभावे देशे परिवर्तनं न सम्भवतीति प्रावोचत्। असैव फाल्गुन मासस्य एकोनविंशं दिवसं यावत् संचालयिष्यमाणेन महाधिवेशनेन दलस्य नूतन नेतृत्वं चेष्यते। काप्लेजुंग जनपदस्य सिरिजंगा ग्रामपालिकायां निर्मितायाः द्वादश मेगावाट मित क्षमतायाः सुपर कावेली जलविद्युदायोजनायाः विद्युद् राष्ट्रिय प्रसारण मार्गे योजिता अस्ति। हिल्टन हाइड्रो इनर्जी लिमिटेड संस्थायाः उत्पादितायाः विद्युत् पास्थर जनपदस्य अमरपुर उपसंयोजन केन्द्रस्य माध्यमेन राष्ट्रिय प्रसारण मार्गे योजिता अस्ति। द्वयोरब्जयोः चतुर्दशानां कोटीनाम् अष्टत्रिंशतः लक्ष्याणां च रूप्यकाणां व्ययेन निर्मितायाः आयोजनायाः विद्युत् द्वात्रिंशदुत्तरैकशत केवी परिमाणस्य प्रसारणमार्गस्य अमरपुरस्थानाद् दुविचौरस्थाने विद्यमानस्य नेपाल विद्युत् प्राधिकरणस्य उपसंयोजन केन्द्रे योजिता अस्तीति आयोजनायाः जनसम्पर्काधिकृतः मेघनाथ ढुंगाना असूचयत्। नेपालस्य प्रथम महिला न्यायाधीशः शारदा श्रेष्ठः ह्यः दिवंगता अस्ति। चतुरशीति वर्षीयायाः पूर्व न्यायाधीशस्य श्रेष्ठस्य ह्यः महाराजगंजवर्तिनी प्रहरी चिकित्सालये उपचारस्य क्रमे निधनम् अभूदिति सर्वोच्च न्यायालयस्य सूचनाधिकारी निराजन पाण्डे अज्ञापयत्। श्रेष्ठस्य ह्यः एव दाहसंस्कारो विहिता अस्ति। महाशिवरात्रि पर्वण अवसरे पाशुपत क्षेत्रे आयोजिताया वैदिक वाङ्मय भक्ति मार्ग इति विषयिण्य अन्तर गुरूकूल विद्यालय स्तरीय विचार मंथन प्रतियोगिताया विजयिभ्य पुरस्कार प्रमाण पत्राणि प्रदत्तानि सन्ति। पुरस्कारान् प्रददत् नेपाल संस्कृत विश्वविद्यालयस्य उपकुलपतिः प्राध्यापकः डॉ धनेश्वर नेपालः विद्यालयस्तरे संस्कृत विषयस्य अपाकरणानन्तरं मौलिक संस्कृतौ आक्रमणं प्रारब्धमस्तीति अवोचत्। तदवसरे उपकुलपतिः प्राध्यापकः डॉ नेपालः संस्कृतस्य अभ्यन्तरे विद्यमानानाम् आयुर्वेद योग प्राकृतिक चिकित्सा वास्तु कर्मकाण्ड सदृशानां प्राविधिक विषयाणां प्रवर्धनस्य नीतिः विश्वविद्यालयस्य अस्तीति असूचयत्। बाजुरा जनपदस्य पूर्वोत्तर क्षेत्रस्य हिमाली ग्रामपालिकायाः पंचम ओडा क्षेत्रस्य क्यूडी स्थाने व्याघ्रस्य आक्रमणेन पञ्चचत्वारिंशद् मेषाः मृताः वर्तन्ते। स्थानीयस्य हिमाल बोर्थापा इत्यस्य गृहात् एकशते मीटर मिते दूरस्थे क्षेत्रे विद्यमाने गोष्ठे व्याघ्रः प्रविश्य पञ्चचत्वारिंशद् मेषाः मारितः इति बाजुरा जनपदस्य प्रहरी निरीक्षकः जनक बहादुर बोहरा अज्ञापयत्। सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारी अध्यक्षः डॉ महेन्द्र विष्टः भाषते सामाजिकार्थिक रूपान्तरणाय सार्वजनिक संचार माध्यम हि प्रभावपूर्णा भूमिका निर्वोढव्या। वर्दिवासवर्तिनः सामाजिक सेवा प्रसारण रेडियो नेपालस्य प्रादेशिक प्रसारण कार्यालयस्य ह्यः स्थलगतं निरीक्षणं विदधानः अध्यक्षः डॉ विष्टः समाजे बह्व्यः समीचीनाः विषयाः जायमानाः सन्तीत्यतः तासां प्रकाशनस्य दायित्वं सार्वजनिक प्रसारण संस्थायाः भवतीति अभाषत। कार्यक्रमे रेडियो नेपालस्य बर्दिवास प्रादेशिक प्रसारणस्य प्रमुखः राम पुकार राम प्रादेशिक प्रसारण कार्यालयस्य अवस्थायाः समग्र विषयं ज्ञापितवान् इति समाचारः।